एष रेडियो नेपालः। सम्प्रति समाचारः श्रूयन्ताम्। प्रस्तुत्री रत्नावली शर्मा। नेपाली कांग्रेस दलस्य संसदीय दलस्य उपवेशे सर्वकारेण विहितानां कार्याणां सम्प्रत्येव आनीतानां अध्यादेशानां आवश्यकतायाः औचित्यस्य च विषये विमृष्टमस्ति। नया वानेश्वरवर्तिनी संघीय संसद भवने दलस्य पदाधिकारिणाम् उपवेशे दलस्य महामन्त्रिणा गगन कुमार थापा विधेन उच्चस्तरीयेण राजनीतिक संयन्त्रेण विधीयमानानां कार्याणां गृहमन्त्रिणा रमेश लेखकेन च सर्वकारस्य कार्यस्य विषये अध्यादेशानाम् आवश्यकतायाश्च विषये ज्ञापितमासीत्। उपवेशे विज्ञान आमन्त्र्य अध्यादेशानाम् अन्तर्वस्तूनां विषये सांसदः विज्ञापितः सन्ति। अद्य आयोक्ष्यमाणे उपवेशे सांसदैः तस्मिन् विषये स्वकीयां धारणां प्रस्तुष्यते इति नेपाली कांग्रेस दलस्य प्रमुख सचेतक पदीयः श्याम घिमिरे अज्ञापयत्। अशैव माघ मासस्य अष्टादश दिवसात् प्रारप्स्यमाणे संसदः शीतकालिकाधिवेशने संयुक्त धारणायाः निर्माणार्थं नेपाली कांग्रेस दलेन दलस्य पदाधिकारी सहितस्य संसदीय दलस्य उपवेशः आहूतोऽस्ति। एतत्पूर्वं गत शनिश्चरवासरे उपविष्टे उपवेशे संविधान संशोधनस्य विषये गभीरतया गृहकार्यं विधाय तस्मिन् विषये सर्वकारस्य संयन्त्रेण सहैव दलगत रूपेण धारणां निर्माय अग्रे वर्धितुम् उपवेशेन निर्णीतम् आसीत्। नेकपा एमाले दलस्य संसदीय दलस्य उपवेशः श्व माघ मासस्य पञ्चदश दिवसाय आहूतोऽस्ति। नया वानेश्वरवर्तिनः संसद भवनस्य लोत्से प्रकोष्ठे दिवा एकवादनात् उपवेशः आहूतोऽस्ति इति दलस्य मुख्य सचेतक पदीयः महेश वर्तुला अज्ञापयत्। उपवेशे अस्यैव माघ मासस्य अष्टादशात् दिवसात् प्रारप्स्यमाणस्य संसदः शीतकालिकाधिवेशनस्य पूर्वकार्यस्य विषये आगामिनः संसदः अधिवेशनं कथं प्रभावकारि विधातुं शक्यते इत्यस्मिन् विषये च विमृक्षते इति प्रमुख सचेतक पदीयः बर्तुला अज्ञापयत्। सभामुखेन देवराज घिमिरे विधेन राष्ट्रियसभातः पारितीकृत्य प्रतिनिधिसभायाम् आनीतानां विधेयकानां विषये सत्तारूढयोः नेपाली कांग्रेस नेकपा एमाले दलयोर्मध्ये विमृष्टमस्ति। सभामुख घिमिरे ह्य सिंहप्रासादे नेपाली कांग्रेस दलस्य प्रमुख सचेतक पदीयेन श्याम घिमिरे विधेन नेकपा एमाले दलस्य प्रमुख सचेतक पदीयेन महेश बर्तुला विधेन च सह प्रतिनिधिसभायां विद्यमानस्य संवैधानिक परिषदा सम्बद्धस्य विधेयकस्य मर्यादा सम्बद्धस्य विधेयकस्य तदतिरिक्तानाम् अन्येषां विधेयकानां विषये च विमृष्टवान् अस्ति। विमर्शनानन्तरं कांग्रेस दलस्य प्रमुख सचेतक पदीयः घिमिरे एमाले दलस्य प्रमुख सचेतक पदीयः बर्तौला च संसदे विचाराधीनानि सर्वाणि विधेयकानि अग्रे सार्यन्ते इति उक्तवन्तौ। एवमेव अद्य प्रातः एकादशवादने संसदि प्रतिनिधित्वं कुर्वतां पञ्चानां दलानां प्रमुख सचेतकपदीयैश्च सह उपवेशः आहूतो वर्तते। मंगलवासरे दिवा एकवादने कार्यव्यवस्था परामर्श समितेः उपवेशः आहूतो वर्तते। समितौ विचाराधीनानां विधेयकानां सत्वरं पारितीकरणाय सभामुखेन घिमिरे विधेन संसदीय समितिनां सभापतिभिः सहापि पृथक् पृथक् संवादः विधीयमानोऽस्ति। सर्वकारेण एकस्मिन् स्थानीयस्तरे एकः पत्राचार सेवा कार्यालयः इति कार्यक्रमस्य घोषणा विहिता अस्ति। पत्राचार सेवा विभागेन ह्य आयोजिते कार्यक्रमे संचार सूचना प्रविधि मन्त्री पृथ्वी सुब्बा गुरूङ घोषणा पुस्तिकायां हस्ताक्षरं कृत्वा कार्यक्रमम् अमुम् उदघोषयत्। कार्यक्रमे मन्त्री गुरूङ पत्राचार सेवायाः पञ्चवर्षाभ्यन्तरे वैधतांकनयुता विधास्यते इति प्रावोचत्। पत्राचार सेवा विभागेन प्रभावकारिणीं सेवां प्रदाय राजस्वस्यापि वृद्धि विधेयति बलं प्रददत् मन्त्री गुरूङ। त्रिपञ्चाशदधिक सप्तशतमेव स्थानीय स्तरान् प्राप्य सेवा प्रवाहस्य अनुगमनं विधातुं जनपद पत्राचार सेवा कार्यालयं निरदिशत्। कार्यक्रमे संचार सूचना प्रविधि मन्त्रालयस्य निमित्त सचिव गजेन्द्र कुमार ठाकुर पत्राचार सेवा विभागस्य महानिर्देशक मनमाया भट्टराई च विचारान् प्राकटयताम्। सर्वकारीय वेबसाइट सेवायाः डाटा विवरणस्य सञ्जालस्य च सुरक्षायाः कृते 2-अधिकशतसूत्रात्मकं निर्देशनं प्रकाशितमस्ति। राष्ट्रिय सांजालिक सुरक्षा केन्द्रेण सर्वकारीय कार्यालयस्य सूचना प्रविधि प्रणालीं सुरक्षितां स्थापयितुं सम्भावितात् सांजालिकापराधात् संरक्षितुं च निर्देशनमेतत् प्रकाशितमस्ति। निर्देशने सर्वकारीय कार्यालयस्य विद्युदुपकरणानां सुरक्षया सामाजिक सञ्जालस्य प्रयोगेण च सह सम्बद्धा विभिन्नोपायाः समाविष्टाः वर्तन्ते। स्वास्थ्य जनसंख्या मन्त्रालयेन नवजात शिशोः श्रवण शक्तौ समस्यायाः विद्यमानस्य अविद्यमानस्य च परीक्षणम् अनिवार्यं विधातुं नवजात शिशु सम्बद्धा एतद् विक्रम वर्षीया निर्देशिका क्रियान्विता वर्तते। स्वास्थ्यकर्मिभिः श्रवण सम्बद्ध सूचनाः अभिभावकेभ्यः प्राप्ता सति परीक्षणं विधाय अतिरिक्तं परीक्षणीयं सत् नासिका कर्ण कण्ठ सम्बद्ध सेवायुतेषु निकटवर्तिषु चिकित्सालयेषु स्वास्थ्य संस्थायां प्रेषणीयमिति निर्देशिकायाम् उल्लिखितं वर्तते। निर्देशिकायां जन्मतो द्वादशतः चतुर्विंशतेः घण्टानाम् अभ्यन्तरे चिकित्सालयं प्राप्ते सति श्रवणक्षमतायाः विषयं परिवारजनेभ्यो ज्ञात्वा परीक्षणं विधेयमिति निर्देशिकायाम् उल्लिखितं वर्तते। नेपाले लब्धजन्मसु सहस्रे बालकेषु 10.8% प्रतिशते जन्मतः एव श्रवणह्रासस्य समस्या दृश्यमाना अस्तीति मन्त्रालयस्य विवरणं वर्तते। बालबालिकासु दृश्यमानस्य प्रतिशतं षष्ट्याः बधिरत्वस्य समाधानं कर्तुं शक्यते इति अध्ययनेन प्रदर्शितमस्ति। रूपन्देही जनपद न्यायालयेन सहकारी वित्त वञ्चनारोपे निगृहीतं राष्ट्रिय स्वतन्त्र दलस्य सभापतिं रवि लामिछानेभिदं न्यासवित्तं गृहीत्वा उन्मोचयितुम् आदिष्टमस्ति। बुच्वलवर्तिनि सुप्रीम सहकारी संस्थायाः वित्तापचलनाभियुक्तस्य रवि लामिछानेभिदस्य रूपन्देही जनपद न्यायालयेन 1 कोटि रूप्यकाणि न्यासरूपेण गृहीत्वा मोचनाय आदेशः प्रदत्तोऽस्ति। न्यायाधीशस्य प्रह्लाद कुमार योगिनः न्यायपीठेन ह्य 1 कोटि रूप्यकाणि न्यासरूपेण गृहीत्वा सभापतिं लामिछानेभिदं मोचयितुम् आदेशः प्रदत्तोऽस्तीति न्यायालयस्य स्वस्थदार पदीयः यज्ञमूर्ति केवाली अज्ञापयत्। बागलुङ्ग नगरपालिकायाः 14 वडाक्षेत्रस्य बलेवाक्षेत्रस्य कृषकैः व्यावसायिक जम्बीर कृषिकर्म प्रारब्धमस्ति। स्थानान्तरणस्य कारणेन रिक्तायमाने बलेवा ग्रामे कृषकैः समूहं निर्माय 1.5 शतरूपणि परिमितां कृषिभूमिं भाटकेन गृहीत्वा जम्बीर कृषिकर्म प्रारब्धमस्ति। बलेवा ग्रामस्य 50 कृषकैः कृषियोग्यभूमेः सदुपयोगं कृत्वा जम्बीर कृषिकर्म प्रारब्धमस्ति। एतदर्थं च 1.5 कोटि लक्षेभ्यश्च अधिकानि रूप्यकाणि निवेशितानि सन्तीति समूहस्य अध्यक्षः केशव सुवेदी अज्ञापयत्। गतवर्षादेव जम्बीरफलस्य उत्पादनं प्रारब्धमस्ति। वर्षेस्मिन् आसन्न 5 लक्षाणां रूप्यकाणां जम्बीरफलस्य विक्रयणं सम्भूतमस्तीति अध्यक्षः सुवेदी असूचयत्। इति समाचारः।